सर्वेषां स्वागतं. प्रार्थनया आरम्भं कुर्मः. अस्तु भगिनि, आरम्भं करोतु.
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये. सरस्वती नमस्तुभ्यं वरदे कामरूपिणी. विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा. गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः. गुरुस्साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः. ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. हरिः ॐ नमस्सर्वेभ्यः.
धन्यवादः भगिनि. इदानीं सुभाषितं प्रति गच्छामः. जयश्री भगिनी पठितुम् इच्छति वा?
आं भगिनि. आं भगिनि.
धन्यवादः.
उद्यमः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः. षडेते यत्र वर्तन्ते तत्र देवो हि साहृकृत्
साह्यकृत्. अस्तु अस्तु, पुनरेकवारं पठतु भगिनि, तदा स्पष्टं भवति.
उद्यमः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः. षडेते यत्र वर्तन्ते तत्र देवो हि साह्यकृत्
साह्यकृत्. अस्तु, उद्यमः अस्तु. अत्र अर्थः अपि अस्ति. अर्थम् अपि पठति वा लता भगिनी? पठति वा अर्थ?
आं भगिनि. यस्मिन् मनुष्ये गभीर प्रयत्नत्वं नूतन अपरिचित कार्यं कर्तुम् अवयं धैर्यं बुद्धिः शक्तिः पराणाम् आक्रमणं कर्तुं सामर्थ्यम् एते षड्गुणाः सन्ति. तस्य मनुष्यस्य साह्यं देवः करोति एव.
देवः करोति एव. अस्तु, अत्र देवः कं साहाय्यं करोति इति अस्ति. केवलं देवः आगत्य साहाय्यं न करोति, वयमपि प्रयत्नं करणीयम्. उद्यमः इत्युक्ते गभीरप्रयत्नं, साधारणप्रयत्नं न, गभीरप्रयत्नम्. अधिकं प्रयत्नं करणे, किञ्चित् कृत्वा न शक्नोमि इति न मा वदतु. प्रयत्नं करोतु. प्रथमम् अस्ति अस्माकं प्रयत्नम्, उद्यमः. साहसं, साहसम् इत्युक्ते नूतन अपरिचितकार्यं कर्तुम् अभयः. इत्युक्ते भयं विना कार्यं करणीयम्. अहं शक्नोमि, कर्तुं शक्नोमि इति मनसि निधाय साहसं करणीयं. साहसया करणीयं, साहसेन करणीयं. धैर्यं वयं जानीमः. धैर्यं, भीतिः मास्तु, भीतिं विना धैर्येण करणीयं. बुद्धिम् उपयुज्य कार्यं करणीयम्. शक्तिः, कर्तुं शक्तिम् अपि शक्तिः अपि आवश्यकी एव. शक्तिम् उपयुज्य करणीयम्. पराक्रमः, पराणाम् आक्रमणं कर्तुं सामर्थ्यम्. केवलम् आक्रमणम् इत्युक्ते अस्माकं बलम् उपयुज्य न पराणां साहाय्यं कुर्मः चेत् तदपि आक्रमणम् एव. तादृशकार्यं कुर्मः यः करोति तादृशकार्यं कर्तुं यस्य सामर्थ्यमस्ति तादृशजनाः सन्ति चेत् तस्य मनुष्यस्य साहाय्यं कर्तुं देवः आगच्छति इति. अतः सारांशः कः? वयं प्रयत्नं करणीयम्. नूतनविषये भयं मास्तु, धैर्येण करणीयं, बुद्धिम् उपयुज्य अस्माकं शक्ति अनुसृत्य वयम् एतत् एव कर्तुं शक्नुमः चेत् तत् करोतु, अधिकं मा करोतु, तादृशशक्तिम् उपयुज्य यावत् शक्नुमः तावत् एव, अधिकं मास्तु. पराक्रमः, एते षड् गुणाः अस्माकं मनसि निधाय कुर्मः चेत् यत्र वर्तन्ते इत्युक्ते यत्र सन्ति, षड् एते गुणाः यत्र सन्ति इत्युक्ते यस्य मनुष्ये सन्ति तस्य मनुष्यस्य साहाय्यं देवः करोति. अत्र देवः इति अस्ति, परन्तु सन्धिकार्येण देवो साहाय्यकृत् इत्युक्ते साहाय्यं करोति, देवः साहाय्यं करोति इति. अर्थम् अवगच्छति वा? प्रश्नः अस्ति वा? अस्तु, पर आक्रमः इत्युक्ते उदाहरणार्थं वेलरस् अपि अस्ति. अन्य वेलरस् इति अस्माकं देहम् उपयुज्य कर्तुं शक्नुमः. उदाहरणार्थं सैनिकाः सन्ति, महाराजः अस्ति, अन्यदेशं गत्वा पराक्रमं करोति, तादृशम् अस्ति पराक्रमः. तादृशपराक्रमं कर्तुं सामर्थ्यम् अस्ति चेत् सः जयं प्राप्नोति. भयम् अस्ति चेत् पराक्रमं कर्तुं सामर्थ्यम् अपि गच्छति खलु, तादृशम् अस्ति पराक्रमः. परन्तु अन्यरीत्या वदामः चेत् अस्माकं बुद्धिम् उपयुज्य अन्यान् जयं प्राप्तुं शक्नुमः. वयम् एतादृशं कुर्मः चेत् अन्ये सर्वे अस्मान् प्रशंसां करोति, तदपि पराक्रमः एव. द्विविधाः सन्ति
इत्युक्ते अस्माकं बलम् उपयुज्य वयं सम्यक् कार्यं कुर्मः इति अवगच्छामि वा तत्र?
सो अत्र अस्माकं बलं शक्तिं देहम् उपयुज्य कार्यं कर्तुं शक्नुमः. परन्तु पराक्रमः इत्युक्ते अन्यान् जयं प्राप्तुम्, अन्ये जनाः सन्ति परन्तु तेषां मध्ये काम्पिटिशन् इति वदामः खलु, स्पर्धाम् अथवा युद्धं तादृशं कृत्वा जयं प्राप्नुमः, तदेव पराक्रमः इति. यथा अन्या उक्तवती वेलर् इति, वेलरस्, विक्टोरियस्.
अहं चिन्तितवती पराक्रमम् इत्युक्ते वयम् इदानीम् आङ्ग्लेयः अस्मान् आक्रमं कृतवन्तः खलु, तादृशं
आं भगिनि, तादृशम् अपि अस्ति परन्तु उत्तमरीत्या अपि पराक्रमं कर्तुं शक्नुमः. तादृशमपि अस्ति यथा अहम् उक्तवती महाराजः अस्ति अन्यदेशं गत्वा करोति तत् अस्ति पराक्रमः परन्तु एतादृश इन् अ गुड् वे अपि अस्ति पराक्रमः परन्तु अत्र गुड् वे एव वदन्ति सुभाषितकारः
परः इत्युक्ते अन्यः वा
अन्यः अन्यः पर आक्रमः पराणाम् आक्रमणं पर आक्रमः षड् एते इत्युक्ते एते षड् यत्र वर्तन्ते यस्मिन् मनुष्ये सन्ति एतादृश कर्तुं बुद्धिः कर्तुं सामर्थ्यम् एतादृशम् उपयुज्य कार्यं कर्तुं सामर्थ्यम् परन्तु एकं कार्यं कर्तुं सर्वे गुणाः आवश्यकाः इति न वदामि बुद्धिम् उपयुज्य कर्तुं शक्नुमः साहसम् उपयुज्य धैर्यम् उपयुज्य सर्वान् अपि उपयुज्य कर्तुं शक्नुमः अस्तु अग्रे अन्यप्रश्नः अस्ति वा अस्तु इदा सो अत्र देवः अनुग्रहं करोति अस्तु सम्यक् अस्तु इदानीं गीतं प्रति गच्छामः कोऽपि गातुम् इच्छति वा
भगिनि अहं प्रयत्नं करोमि वा
निश्चयेन करोतु भगिनि धन्यवादः करोतु
कृत्वा नवदृढसङ्कल्पं विचरन्तो नवसन्धिमो नवसन्धिवचनं रचयामो नवमितिहासम् कृत्वा नवदृढसङ्कल्पम्
सन्देशं घटयामो
नवसङ्घटनं रचयामो नव इतिहासं कृत्वा नवदृढसङ्कल्पम् समुन्नतिकाङ्क्षिणः नवमन्वन्तरसमुन्नतिकाङ्क्षिणः त्यागधनाकार्यैकर्ताः कृतिनिपुणा वयं विषण्णा कृतिनिपुणा वयं विषण्णा कृत्वा नवदृढसङ्कल्पम् भेदभावनां दरिद्रां समुद्धरन्त हरिद्रां समुद्वरन्त दुःखवितप्तान् समाश्वसन्तः कृतसङ्कल्पान् सदा कृत्वा नवदृढसङ्कल्पम् प्रगतिपतान् हि विषये परां संरक्षेम प्रगतिपथान् हि परां संरक्षेम समोत्साहिनो निरुद्वेगिनो समोत्साहिनो निरुद्वेगिनो नित्यनिरन्तरशीला कृत्वा नवदृढसङ्कल्पम् नमो नवसङ्घटनं रचयामो नवमितिहासं कृत्वा नवदृढसङ्कल्पम्।
उत्तमं भगिनि,
धन्यवादः।
अन्य कोऽपि गातुम् इच्छति वा? मिलित्वा गायामः वा एकवारम्?
आं भगिनि,
आरम्भं करोतु कोऽपि।
नवमन्वशिल्पिनः सर्वमुन्नतिकाङ्क्षीणः कृतिनिपुणाः वयं विषण्णाः भावनां निराशयन्तः दीनदरिद्रान् समुत्तरन्तः दुःखितः कृतान् हि विचलेम परं परां संरक्षेम समोत्साहिनो निरन्तरगतिशिलाः नवदृढसङ्कल्पम् वितरन्तो नवसन्देशम् घटयामो नवसङ्घटनम् नवमितिहासम्
नवमितिहासम्।
बहु उत्तम गीतम्। एतादृशदृढसङ्कल्पं कुर्मः वयं संस्कृतं पठित्वा अग्रे गच्छामः इति कृत्वा नव इतिहासं नवम इतिहासं रचयामः एव बहु बहु उत्तमम् अस्ति। अग्रे गच्छामः। अन्तिमकथा अस्ति सो अत्र पञ्चतन्त्र कथा इति कथाः इति पुस्तकात् स्वीकृताः कथाः एताः सो अत्र तस्मिन् पुस्तके अन्तिमकथा एषा मूर्खः अनुचरः इति अस्तु अधस्तात् आगच्छामि। विष्णुमहोदय पठति वा?
आं भगिनि,
धन्यवादः।
षड्विंशति मूर्खः अनुचरः
षड्विंशतितमा कथा षड्विंशतितमा कथा इति वदतु।
षड्विंशति समागतः
तम सो अत्र पूर्णप्रत्यय इति जानन्ति वा न वा इति न जानामि परन्तु वदामि। सो अस्माकं दिनचर्या अस्ति खलु, प्रथमा द्वितीया तृतीया चतुर्थी इति. सो अत्र षड्विंशतितमा कथा इति, विंशति आरभ्य तम इति पदमपि योजनीयम्. एकादशी द्वादशी इति अस्ति स्त्रीलिङ्ग. किमर्थम् इत्युक्ते तिथि इति स्त्रीलिङ्गे अस्ति, परन्तु पुल्लिङ्ग अस्ति चेत् अह एकादशः स्त्रीलिङ्गे एकादशी, एकादशी कथा. नपुंसकलिङ्गे एकादशं, विंशति आरभ्य तम अपि योजनीयम्. सो अत्र षड्विंशतितमी कथा इति. आम् आं भगिनि, पञ्चतन्त्रकथा इति पुस्तकात् स्वीकृता कथा.
कश्चन महाराजः आसीत्, तस्य प्रासादे कश्चन वानरः आसीत्. सः वानरः महाराजस्य अतीव विश्वासपात्रम् अनुचरः, अतः राजभवने सर्वत्र अपि तस्य प्रवेशः अनुमतः आसीत्.
अस्तु महोदय, वदतु.
कश्चन एकसमये एकः महाराजः अभवत्. तस्य प्रसादे कश्चन राज्ये कश्चन एकः वानरः अभवत्. सः वानरः महाराजस्य बहूनि विश्वास प्राप्त
विश्वासं प्राप्तवान्. सम्यक्, महाराजतः विश्वासं प्राप्तवान्. सम्यक्,
अतः सः वानरः अनुमति गता सर्वे अपि प्रवेशः सर्वराज्यभवने राज्यभवने प्रवेशः यदि अपि विहरन् अनुमति आसीत्.
सम्यक्. सो अत्र अनुचरः इति अर्थद्वयम् अस्ति. एकः अस्ति सेवकः इति, अन्यः अस्ति सहचरः. सहचरः इत्युक्ते कम्पानियन् इति वदामः खलु, तादृशः. सो अत्र यस्मिन् विश्वासः अस्ति सः एव विश्वासपात्रम् इति. भवान् तु सम्यक्तया उक्तवान् महोदय, महाराजस्य विश्वासं प्राप्तवान् एषः वानरः, अतः सर्वत्र गन्तुम् अनुमतिः अस्ति तस्मिन्. सो अतः सः सर्वत्र गच्छति, वानरः सर्वत्र गच्छति. अत्र मास्तु इत्र मास्तु इति किमपि नास्ति, सर्वत्र गच्छति, स्वतन्त्रतया गच्छति. सम्यक्, अस्तु. वीणाबेन् भगिनि.
आं भगिनि. एकदा महाराजः अन्तःपुरे निद्रां कुर्वन् आसीत्, तदा वानरः तत्र आगतवान्. सः निद्राङ्गतस्य महाराजस्य समीपं किं भगिनि निद्राङ्गतस्य महाराजस्य समीपं गत्वा व्यजनेन वीजनम् आरब्धवान्. एकदा महाराजः स्वस्य प्रकोष्ठे, विशालप्रकोष्ठे निद्रां कुर्वन् कृतवान्. तदा वानरः तत्र आगतवान्. सः निद्राङ्गतस्य निन्द्रितवान् महाराजस्य समीपं गत्वा व्यजनेन वीजनम् आरब्धवान्. व्यजनेन सः वानरः वीजनम् आरब्धवान्
वीजनम् आरब्धवान् सम्यक् अवगच्छति वा सर्वे
आं भगिनि
अस्तु अग्रे शोभना भगिनि
आं भगिनि अत्रान्तरे महाराजस्य वक्षस्थले एका मक्षिका उपविष्टा वानरः व्यजनेन तां दूरीकर्तुं पुनः पुनः प्रयत्नं कृतवान् तथापि मक्षिका ततः दूरं न गता तदा सः स्वभावचपलं चपलः मूर्खः वानरः कुपितः सन्तीक्ष्णं खण्डं खड्गं तीक्ष्णं खड्गं गृहीत्वा तस्याः उपरि प्रहारं कृतवान् मक्षिका उड्डीय ततः गता खड्गप्रहारेण महाराजस्य वक्षस्थलं विदीर्णं जातं तेन महाराजः मृतः अभवत् अनन्तरं एकमक्षिका प्रकोष्ठे प्रकोष्ठे महाराजस्य वक्षस्थले अतिष्ठत् वानरः व्यजनेन तां दूरीकृतं पुनः पुनः प्रयत्नम् अकरोत् तथापि मक्षिका दूरं न गता तदा वानरः स्वभाव तस्य स्वभाव वानरस्य अस्थिरं मनः सः किं सः एक खड्गं गृहीत्वा राजस्य वृक्षस्थले प्रहारं अकृत प्रहारं कृतवान् मक्षिका उड्डीय ततः गता सो खड्गप्रहारेण महाराजस्य वक्षस्थलं विदीर्णं
भग्नम् अभवत् इति
भग्नम् अभवत् ततः महाराजः मृतः अभवत्
मृतः अस्तु वयम् अवगच्छामः इति मन्ये खलु मूर्खः अस्ति चेत् सः अस्माकम् अनुचरः मास्तु इति सर्वत्र गन्तुम् अनुमतिः मा ददातु मूर्खः अस्ति चेत् तादृशं मास्तु इति सो अत्र अहं किञ्चित् व्याकरणविषये वदामि सो अत्र उपविष्टा अपि च गता अन्य किं जातम् एतादृशपदानि क्त प्रत्ययम् इति वदामः खलु क्त प्रत्ययान्तपदम् इति साधारणतया वयं प्रयत्नं कृतवान् अत्रापि कृतवान् इति कीदृशपदं तव तु प्रत्ययं वयं पठितवन्तः कर्तरि प्रयवानरः कृतवान् अत्रापि वानरः कृतवान् इति परन्तु मक्षिका उपविष्टा इति अस्ति सो एतादृशपदं त प्रत्ययम् उपयुज्य अस्ति साधारणतया त प्रत्ययः कर्मणि प्रयोगे एव अस्ति कर्मणि प्रयोगविषये न पठितवन्तः वयं परन्तु कथायां सर्वत्र आगच्छति एतादृशप्रयोगः कर्मणि प्रयोगः इत्युक्ते आङ्ग्लभाषायां पेसिव् वाय्स् इति परन्तु अत्र कर्तरिप्रयोगे अस्ति. एका मक्षिका उपविष्टा, उपविष्टवती एव भवितुम् अर्हति खलु तव तु प्रत्यये, परन्तु अत्र उपविष्टा इति अस्ति. सो अत्र नियमः अस्ति, अहं किञ्चिदेव वदामि, विस्तरेण अग्रे पठामः. गत्यर्थकधातु इति वदामः. गत्यर्थक इत्युक्ते यत्र एकस्थलतः अन्यस्थलं गच्छति, तादृश इत्युक्ते उपविष्टा, अपि च गता, अपि च आनीता, पतिता, अन्य किं जातम्, एतादृशपदानि सन्ति चेत् कर्तरिप्रयोगे अपि उपयोक्तुं शक्नुमः. एका मक्षिका उपविष्टा, दूरं गता, अन्य किम् अस्ति, गता, जातं, पतिता नास्ति, पतिता अस्ति चेत् तत्रापि कर्तुं शक्नुमः. अग्रे अहं पश्यामि चेत् अहं वदामि. प्रश्नः अस्ति वा? अस्तु, तर्हि गीतासोपानं प्रति गच्छामः. तस्य स्वभावः चपलः इत्युक्ते एकत्र सः न स्थिरं न तिष्ठति, स्थिरमनः नास्ति, चञ्चलं. अचल इति वदामः खलु, अचल इत्युक्ते किमपि मूवमेण्ट् नास्ति, चलति न चलति, अचलति न चलति. सो अचल, अत्र चञ्चल इत्युक्ते सर्वदा चलनं भवति तस्मिन् देहे, तूष्णीं न तिष्ठति.
पुनः पुनः चलति,
पुनः पुनः चलति, चञ्चलति, चञ्चलं, चपल.
अवगतम्.
भगिनी, मम उपविष्टा, जात, कीदृशं पदम्? एकवारं
पुनः प्रत्यय क्त. अस्तु, अत्र लिखामि अहं. दृश्यते वा अत्र?
आम्.
बहु ध्वनिः आगच्छति, कृपया म्यूट् कुर्वन्तु. सो अत्र क्त प्रत्यय भगिनि, क्त प्रत्ययः. उदाहरणार्थं गतवान् इति तवतु प्रत्यय, तवतु प्रत्यय, तवतु प्रत्यय वयं पठितवन्तः. गतवान् इति, सो अत्र मूलरूपम् अस्ति गतवत् एव, गतवत् एव मूलरूपं. पुल्लिङ्गे गतवान्, स्त्रीलिङ्गे गतवती, नपुंसकलिङ्गे गतवत् इति अस्ति. परन्तु क्त प्रत्यय अस्ति चेत् गतवत् अस्ति खलु, वत् गच्छति. सो केवलं गत एव मूलरूपम् अस्ति, गत एव गत. सो अतः पुल्लिङ्गे गतः, स्त्रीलिङ्गे गता, नपुंसकलिङ्गे गतम्. उदाहरणार्थं सः गतः, सा गता, वाहनं गतम्. एवं भवति. साधारणतया गतवान् इति कर्तरिप्रयोगे एव भवति, कर्मणि प्रयोगे न भवति. तेन गतवान् इति न भवति, सः गतवान् एव. परन्तु गतः इति साधारणतया कर्मणि प्रयोगे एव भवति, तेन गतः इति. परन्तु कर्तरिप्रयोगे अपि भवितुम् अर्हति, परन्तु नियमाः सन्ति, नियमानुसारमेव वयम् उपयोगं कर्तुं शक्नुमः. नियमः किं के इति किञ्चित् वदामि, विस्तरेण अग्रे वदामि. अत्र किम् इत्युक्ते अकर्मकधातु अस्ति चेत् अकर्मकधातु अपि च गत्यर्थकधातु. अन्यत् एकमस्ति श्लिषादयः, तत् इदानीं मास्तु. सो अकर्मकधातु अस्ति चेत् कर्तुं शक्नुमः, गत्यर्थकधातु अस्ति चेत् कर्तुं शक्नुमः. गत्यर्थकधातु अस्ति चेत् गतः, पतितः, पतित, अन्य किम्, आनीत, नीत, जात इति. अकर्मकधातु अस्ति चेत् हसित, खलु, सः हसितवान्, तेन हसितः, तेन हसितम् इति भवति, हसितम् इति, हसित,
निद्रा,
रुदित, निद्रा, निद्रित इति एवम् अस्तु. अग्रे अवगच्छति वा?
धन्यवादः भगिनि.
अग्रे यदा अहं पश्यामि अहं वदामि. अस्तु, सो गीतासोपानं प्रति गच्छामः. नूतनछात्राणां कृते अहं वदामि इदानीम्. अस्तु, एकनिमिषम्, अन्यगीतासोपानं स्वीकरोमि. गीतासोपानम् अत्र पश्यन्तु. नूतनछात्राः अत्र के आगच्छन्ति, इतोपि पर्यन्तं किं किं पठितवन्तः? षष्टिविभक्तिरूपं, मम, भवतः, भवत्याः, अपि च प्रथमाविभक्तिरूपाणि, पुल्लिङ्ग, स्त्रीलिङ्ग, नपुंसकलिङ्ग, अकार, इकार, उकार, ऋकार, एवम् एवं पठितवन्तः. सः, अपि च, भवान्, भवति, अहम्, आम्, आम् न, किं वा, एतत् पूर्वमेव पठितवन्तः. नूतनविषयः नास्ति. अस्ति नास्ति, नूतनविषयः नास्ति. अत्र तत्र नूतनविषयः नास्ति. अत्र एव प्रथमाविभक्तिरूपाणि नूतनपदानि सन्ति यत् पूर्वं वयं न पठितवन्तः. इकार, उकार, ऋकारान्तपदानि, ऋकार अन्तपदानि. अस्तु, अपि च षष्टिविभक्ति, अत्र अपि अकार, उकार, ऋकार षष्टिविभक्तिं पठितवन्तः. लट्लकार द्विवचनमपि नूतनविषयः, द्विवचनं पठितवन्तः. अग्रे किम्, आत्मनेपदिधातु मुख्यविषयः, आत्मनेपदिधातु पठितवन्तः. लोट्लकारं, लोट्लकारं या संख्या विषये किञ्चित्. इदानीं वयं विभज्यप्रयोग, विभज्यप्रयोग अपि नूतनविषयः नास्ति, पूर्वमेव पठितवन्तः. कुत्र? अभ्यासदर्शिन्यां पठितवन्तः. इदानीं किञ्चित् पठित्वा अग्रे गच्छामः. प्रश्नः अस्ति वा? अस्तु, सो अत्र क्रियापदं विभज्यप्रयोगम् इति कुर्मः चेत् कृ धातुम् उपयुज्य, कृ धातुम् उपयुज्य वयं विभज्यप्रयोगं कुर्मः. कृ, क्षम्यताम्, कृ धातुम् उपयुज्य. अत्र स्थापयति, स्थापनं करोति, वादयति, वादनं करोति, प्रेरयन्ति, प्रवेशति, प्रवेशं करोति. केचन पदानाम् अन्ते, कानिचन पदानाम् अन्ते नं भवति, अत्र नं नास्ति. किमर्थम्? अग्रे अग्रे गत्वा गत्वा वयम् अभ्यासेन अवगच्छामः. प्रवेशम् एव, प्रवेशनं नास्ति, प्रवेशं, प्रेरणं, प्रेरयति प्रेरणं साधारणतया नम् आगच्छति परन्तु सर्वत्र न सो अत्र अन्य नियमः अपि अस्ति विभज्य प्रयोगं नास्ति चेत् द्वितीया विभक्तिरूपं भवति सञ्जयः धृतराष्ट्रं पश्यति अथवा बोधयति सञ्जयः परन्तु विभज्य प्रयोगं कुर्मः चेत् बोधनं करोति इति वदामः चेत् कस्य बोधनं करोति सो अत्र कस्य इति प्रश्नः भवति अत्र कम् एव कम् अथवा किं क्षम्यताम् अहं सम्यक् न लेखितुं शक्नोमि सो अत्र कम् अथवा किम् अथवा काम् एव प्रश्नः भवति कां बोधयति किं पश्यति कं वदति एतादृशं परन्तु अत्र कस्य अथवा कस्याः किमर्थम् इत्युक्ते षष्टिविभक्तिरूपं भवति कर्मपदं षष्टिविभक्तिरूपं भवति सञ्जयः धृतराष्ट्रस्य बोधनं करोति इति प्रश्नः वा अस्तु पुस्तके पुस्तके एव सन्ति एतादृशम् एतत् वयं कृतवन्तः चतुर्थ अभ्यासं कुर्मः इदानीम् अस्तु सविता भगिनी नमनं करोषि नमनं करोषि इत्युक्ते त्वम् अस्ति अतः नमसि त्वं नमसि सो अत्र विभज्य प्रयोगम् अस्ति अत्र विभज्य प्रयोगं नास्ति त्वं नमसि अस्तु भगिनि दहनं करोति
दहनं करोति सः
दह अपि च तिं योजयति सो अत्र नमनं करोति अस्ति खलु
आं भगिनि
अन्ते नम् अस्ति नमति नमति इति आगच्छति दहनं करोति दहति दहति तावदेव सुलभः एव दहति
दहति
सः दहति सम्यक् अग्रिमं करोतु सङ्ग्रहणं कुर्मः
सङ्ग्रहति
सो अत्र किञ्चित् भिन्न भिन्नरूपम् अत्र
गृह्णन्ति गृह्णाति सङ्गृह्णाति गृह्णाति
गृह्णीमः नूतन
गृह्णीमः
सङ्गृह्णीमः वयं जानीमः एव परन्तु विस्मृतवन्तः तावदेव सङ्गृह्णीमः गृह्णीमः क्रीणीमः गृह्णीमः एतादृशम् अस्ति सम्यक् भगिनि धन्यवादः रेणुका भगिनि
नमस्ते भगिनि
नमस्ते भगिनि स्वागतं स्वागतं
धन्यवादः अधिगमनं करोति एषः अधिगच्छति
अधिगच्छति सम्यक् गमनम् इति गच्छ गम् धातु लट्लकारे गच्छति अधिगच्छति सम्यक् अधिगच्छति एषः अधिगच्छति न अवगच्छन्ति चेत् पृच्छन्तु अस्तु निर्मला भगिनी जीवनं कुरुत जी जी एव भवति जीव जीवित जीवित
जीवित
जीवति इति अस्ति जीवत सारि जीवितन जीवत सो अत्र जीवति अस्ति चेत् कथं भवति विभज्य प्रयोगः? जीवनं करोति खलु, जीवनं करोति, जीवति इति इति पदम् अस्ति चेत् जीवनं करोति, अत्रापि समानमेव, जीवनं कुरुत यूयं जीवत, कुरुत इति यूयम् अस्ति खलु, जीवनं करोति, कुरुतः कुर्वन्ति, करोषि कुरुतः कुरुत, लट् लकारे कथं कथं भवति? जीवति, जीवतः, जीवन्ति, अनन्तरं जीवसि, जीवत, सो अत्र जीवत।
धन्यवादः,
धन्यवादः, जीवत। कठिनमस्ति वा, प्रथमतः कुर्मः वा, आवश्यकं वा?
नमस्कारः भगिनि, अहम् उषा।
स्वागतं भगिनि, स्वागतम्। अस्तु अग्रे गच्छामः, कठिनमस्ति चेत् वदन्तु, पुनः प्रथम अभ्यासः द्वितीयाभ्यासमपि कुर्मः आवश्यकं चेत् वदन्तु कृपया। अस्तु निर्मला भगिनी, मालती भगिनी न वदति इति चिन्तयामि, सा उक्तवती। लता भगिनी, चिन्तनं कुरुतः।
आं भगिनि, चिन्तनं कुरुतः, चिन्तयतः,
चिन्तयतः, सम्यक् एव खलु, सो चिन्तयति इति अस्ति, अतः सः अस्ति, सो चिन्तयतः, सर्वे अवगच्छन्ति वा? सो अत्र कुर्मः इति अस्ति, सो सङ्गृणीमः, करोति, दहति, अधिगच्छति, ति अस्ति ति, स अस्ति अतः जीवत, चिन्तयतः, कुरुतः अस्ति चिन्तयतः।
भगिनि, चिन्तयतः और् चिन्ततः?
चिन्तयति अस्ति खलु, अहं चिन्तयामि, सः चिन्तयति, चिन्तयति इति रूपम्। सो अत्र तः इति अस्ति, सो अत्र अतः तः इति परिवर्तनं कुर्मः, तथा एव अहं करोमि। अस्तु अग्रे,
धन्यवादः,
धन्यवादः भगिनि। जयश्री भगिनि,
अन्वेषणं कुर्वः, आवाम् अन्वेषणावः।
सो अत्र अन्वेषया, अन्वेषयति प्रथमपुरुषः अस्ति, अन्वेषयति, अन्वेषयामि, कथं कथं वदा, पुनः
वदतुः,
अन्वेषयावः, सम्यक्, अन्वेषयावः, अन्वेषयावः, किमर्थम् अत्र वः इति अस्ति, अन्वेषयावः। अस्तु अम्ब वदति वा, अम्ब, परिहरणं कुर्वन्ति, अत्र हृ धातु अस्ति, हरति एवं भवति, हरति, बहुवचनं किम्?
हरन्ति
हरन्ति
हरन्ति अम्ब सो वदतु अम्ब ताः
परिहर
सम्यक् परि
परिहरन्ति
सम्यक् ताः परिहरन्ति प्रथमपुरुष एकवचनं लिखन्तु प्रथमं ततः अग्रे गन्तुं शक्नुमः कुर्वन्ति परिहरन्ति बहुवचनरूपम् अस्तु गोपिका भगिनी छेदनं करोति किञ्चित् भिन्न रूपं भवति अचिनत्ति इति भवति चिनत्ति किञ्चित् भिन्नक्रियापदं छेदनं करोति सा चिनत्ति इति भवति चिनत्ति श्रीविद्या भगिनी भ्रमणं करोमि भ्रमणं करोमि
भ्रमणं करोमि भ्रमति भ्रमतः भ्रमति भ्रम भ्रम अहं भ्रमामि वा
सम्यक् भ्रमामि भ्रमामि अवगच्छन्ति वा सर्वे कथं कथम् आगच्छति इति
तत्र क्रियापदां विभजनं कृत्वा कथं दत्तवन्तः तदनुसृत्य वयं तत्र विभजनं विना कुर्मः इति अस्ति खलु
भ्रमणं करोमि अहं भ्रमामि श्रवणं करोमि शृणोमि इति भवति शृणोमि अग्रे चम्पा भगिनी
आं भगिनि
भ्रमणं अर्जनं करोमि अर्जनं करोति
भवान् अर्जनं करोति भवान् भवान् अर्जयति
सम्यक् अर्जयति अर्जयति अवगच्छन्ति वा सर्वे पुनः करणीयं वा
विभाज्य नास्ति विभाजन नास्ति पुनः करोमि
अस्तु सो अत्र द्वितीय अभ्यासं पश्यामः अत्र केवलं षष्टिविभक्तिरूपं विदारणं करोति हृदयस्य विदारणं करोति सो अत्र षष्टिविभक्तिरूपम् एवं कुर्मः तृतीयं पुनः कुर्मः मिलित्वा कुर्मः सर्वे वदन्तु परिचिन्तयति कथं कथं भवति परिचिन्तनं करोति परिचिन्तनं करोति चिन्तयति करोति इति भवति बोधयामि करोमि बोधनं करोमि पिबति
पानं
करोति
कृ धातु आवश्यकं कृ धातु विभज्यप्रयोगः अस्ति चेत् कृ धातु प्रक्षालयति अत्र सि अस्ति परन्तु कृ धातु षि भवति कुत्र षि भवति इत्युक्ते यत्र आ नास्ति तत्र षि भवति उदाहरणं पठसि लिख गच्छसि परन्तु करो आन् अ नास्ति अत्र करो शृणोषि प्राप्नोषि एवम् अ नास्ति चेत् सि भवति निर्गच्छति
निर्गमनं करोति
प्रविशत
प्रवेशनं कुरुतः
प्रवेशं कुरुतः अत्र न न भवति दृष्टवन्तः खलु प्रवेशं प्रवेशं कुरुतः कुरुत प्रवेशं कुरुत परिभ्रमति परिभ्रमणं करोति अनुसरति
अनुसरणं करोति
प्रवेशनम् इति नास्ति प्रविशति इति अस्ति प्रवेशम् एव सर्वत्र नम् 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 इति अस्ति परन्तु अत्र अत्र नम् नास्ति
Where are you seeing this?
This is on page 61. No. Atra 60 eva.
60.
You see that...
Pravesham, okay.
Where they are?
Mama Pustake 61.
Oh, 60. Okay. Mama Pustake api 60 eva. Astu. Pravesham kuruta. परिभ्रमति अभवत् अनुसरति
अनुसरणं
करोति स्मरति स्मरणं करोति अस्तु चिनत्ति अत्र चिनत्ति छेदनं करोति इत्युक्ते वृक्षस्य छेदनं करोति अथवा वृक्षं चिनत्ति एवं भवति वृक्षं चिनत्ति अथवा वृक्षस्य छेदनं करोति अभिनन्दति
अभिनन्दनं
करोति आवृणोति आवरणं करोति अस्तु आवरणं सुवन्ति स्तवनं करोति स्तवनम् इत्युक्ते वयं पूर्वमेव पठितवन्तः स्तोत्रम् इव स्तवनं
कुर्वन्ति
कुर्वन्ति क्षम्यतां कुर्वन्ति धन्यवादः कुर्वन्ति अस्तु शोषयति
शोषणं करोति
अस्तु सङ्गृह्णाति सङ्ग्रहणं करोति अस्तु गायसि
करोषि
अत्रापि करोषि किमर्थम् कृ धातु तथा एव भवति ओ भवति आ न भवति अतः इदानीं किञ्चित् स्पष्टं भवति खलु अस्तु अग्रे गच्छामः अन्तिम अभ्यासः यथोदाहरणं वाक्यानि रचयत उदाहरणं वाचनं करोमि श्लोकं श्लोकः इति अस्ति वाचनं करोमि अस्तु उषा भगिनि प्रथमं उदाहरणं पठतु भगिनि अग्रे लेखनं कुर्मः इति पठतु वाचनं करोमि श्लोकः इति अस्ति
द्वे उदाहरणं स्मरणं करोति अहं स्मरणं करोति
अहं अत्र श्लोकः इति अस्ति श्लोकस्य इति परिवर्तनं करोतु श्लोकस्य वाचनं करोमि
अहं श्लोकस्य वाच स्मरणं करोमि
अग्रिम न अत्र
कः मम स्मरणं करोति?
न, प्रथमं भगिनी अत्र वाचं करोमि इति विभज्य प्रयोगः अस्ति. कस्य वाचनं करोमि? श्लोकः. श्लोकस्य वाचनं करोमि. सो अतः श्लोकः इति पदं षष्टिविभक्तिं स्वीकरोति. किमर्थं? विभज्यप्रयोगः अस्ति चेत् षष्टिविभक्तिं स्वीकरोति. अतः अहम् इति योजितम् अत्र. किमर्थमित्युक्ते करोमि इति अस्ति. श्लोकस्य वाचं करोमि इति उदाहरणम् अस्ति. द्वितीय उदाहरणं, स्मरणं करोति. कस्य स्मरणं करोति? अत्र अहम् इति प्रथमा विभक्ति एकवचनरूपं, परन्तु षष्टि विभक्ति एकवचनरूपं कथं भवति? अहम् इति पदं मम इति भवति खलु, मम पुस्तकं षष्टि विभक्ति. कः मम स्मरणं करोति इति? वदतु. मम अथवा मे. अस्तु, मम अथवा मे. सम्यक्, मम अथवा मे.
इतिहासः.
लेखनं कुर्मः. कुर्मः इति अस्ति चेत् अत्र किम् आगच्छति? नो, यु कन् सो हियर् इस् अ सेण्टेन्स्, हियर् इस् अ क्वश्चन्. यु कन् डु एनिथिङ्ग्. सेण्टेन्स् वदतु, वाक्यं वदतु, अथवा प्रश्नमपि सम्यक् एव. परन्तु अत्र मुख्य अंशः किम् इत्युक्ते, कुर्मः इति अस्ति चेत् कर्ता का?
वयम् इतिहासस्य लेखनम्.
इतिहासस्य, सम्यक्, इतिहासस्य लेखनं कुर्मः. सम्यक्, वयम् इतिहासस्य लेखनं कुर्मः. अस्तु, सम्यक्. विष्णुमहोदय अग्रे. पूजनं कुर्वन्ति.
पूजनं कुर्वन्ति देवता. देवता
प्रथमम् एकवचनं वदतु, अनन्तरं
कः पूजनं, कः देवता, देवतां पूजनं करोति?
देवं खलु, देवं, देवान् पूजयति. परन्तु पूजनं कुर्वन्ति इति अस्ति चेत् षष्टिविभक्ति. देवः इति पदस्य षष्टिविभक्तिः कः?
षष्टि
देवस्य. इदानीं बहुवचनं, देवस्य, देवयोः. देवयोः देवानां.
ते देवानां पूजनं कुर्वन्ति.
सम्यक्, ते देवानां पूजनं कुर्वन्ति. प्रश्नः अस्ति चेत्
क्षम्यतां भगिनि, देवता स्त्रीलिङ्ग नास्ति वा?
तदपि भवितुम् अर्हति. देवता इत्युक्ते पुल्लिङ्गे अपि भवति, स्त्रीलिङ्गे अपि भवति. सम्यक्, स्त्रीलिङ्ग चेत् देवतायाः वदतु. देवतायाः,
देवतायोः,
देवतानां. अत्र पुल्लिङ्ग स्त्रीलिङ्ग समानरूपमेव भवति. देवतायाः, देवतयोः, देवतानां, देवतानां पूजनं कुर्वन्ति. सम्यक्,
धन्यवादः. पूजनं कुर्वन्ति
देवतानां, पूजनं कुर्वन्ति. सम्यक्, के देवतानां पूजनं कुर्वन्ति? सम्यक्, सम्यक्. वीणा बेन्न भगिनी.
आं भगिनि. धारणं करोषि.
करोषि
वस्त्रं धारणं करोषि. त्वं वस्त्रं धारणं करोसि.
परन्तु अत्र वस्त्रम् इति षष्टिविभक्तिरूपं स्वीकरोति.
वस्त्रस्य त्वं वस्त्रस्य त्वं वस्त्रस्य धारणं करोषि.
सम्यक्, त्वं वस्त्रस्य धारणं करोषि. अविभज्यप्रयोगः अस्ति चेत् त्वं वस्त्रं
अहं सम्यक् न जानामि.
धरति अथवा धारयति, अत्र धारणम् इति अस्ति, अतः धारति, धारयति, धारयसि. सम्यक्, धारयसि,
धारयसि,
त्वं वस्त्रं धारयसि. सो अत्र स्मरणं करोति इति अस्ति विभज्यप्रयोगः. विभज्यप्रयोगः नास्ति चेत् कथं भवति?
त्वं धारणं करोषि.
न न, अत्र उदाहरणे
स्मरति,
स्मरति, स्मरति इति अस्ति चेत् वाक्यं कथं भवति? द्वितीयविभक्तिरूपं मां भवति. कः मां स्मरति? एवम् एवं भवति. लेखनं कुर्मः कथं लिखामः? अविभज्यप्रयोगः.
इतिहासः लेखनं कुर्मः. अहं लेखनं.
सो अत्र भगिनी साधारणतया वयं कथं वदामः? अहं लिखामि, आवां लिखावः, वयं लिखामः एव वदामः खलु. लिखामः एव वयं साधारणतया वदामः. लट् लकारः अस्ति चेत् लिखामः. परन्तु विभज्यप्रयोगः अस्ति चेत् कृ धातुम् उपयुज्य लेखनं कुर्मः इति अस्ति. अवगच्छति वा उषा भगिनी? विभज्यप्रयोग अहम् इदानीं वदामि. लिखामः इति साधारणतया वयं वदामः. सः लिखति, ते लिखन्ति, अहं लिखामि, वयं लिखामः. इदानीं विभज्य इत्युक्ते स्प्लिट् कृत्वा. विभज्य इत्युक्ते स्प्लिटिङ्ग्. आफ्टर् वि स्प्लिट् वि यूस् द कृ धातु.
But what are we splitting is mine.
Yes, this the kriya padam likamah. We split into two words.
Okay.
Ekam asti kri dhatu upayujya, anyat ekam asti lekhanam etadisha rupam. Etadisha rupam etasya nama asti lyut
lekhanam.
Sorry, lyut. So this rupam is called lyut. Brahmanam, chedanam, arjanam, parihanam, lekhanam, lyut. Lyut rupam. So we split into lyut as well as the kri dhatu. The kri dhatu upayujya kriyapadam. Evam bhavati. So when we don't split, we use dvitiya vibhakti rupam. When we split, we have to use shashti vibhakti rupam. So this is the rule. Niyamah evam asti.
Lute is vibhajya.
Lute is this one is called lute rupam. Lekanam, pujanam, dharanam, arjanam, brahmanam, pariharanam. vachanam, smaranam. This rupam is called lyut. This rupam is called tinganta rupam, tinganta padam. Because it has the ti in the end. Although this has ma, kurumaha, this is a tinganta padam. Ting asti, ante. Ting pratyaya asti, so it is a tinganta padam.
So this is the lyutam?
No, this is a lyudantam. We call it lyudantam. Yeah.
Lyudantam.
So it becomes a da.
Oh, da, okay.
Yeah, it becomes a, the ta will become da. Lyudantam padam. Lyudantam padam. Okay, so when we say likamaha, it will become, so what is the dvitiya vibhakti rupam for this?
Likamaha?
No, likamaha. Kim likamaha?
Itihasam
likamaha. But itihasasya lekhanam kurmaha. That is how we transfer it.
Okay.
Now we understand. Okay. So, pujanam kurvanti, we say devatanam pujanam kurvanti. Idanim pujanam kurvanti. How will we use the avibhajya prayogaha?
Pujayanti.
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 Pujayanti. So, atra, if it is so this is strilingava pullingava. Strilinga iti anumanam kurmaha. Then what happens?
Devataha eva.
Ditiya vibhakti samanam eva bhavati. If it is pullinga iti anumanam kurmaha chet?
Devan.
Devanam.
Devatan. Devatan. Atava Devan. Devan api samya. Devan. Parantu Devata asti che sadhanataya strilinge eva. Parantu pullinge api devata api asti. Prati devata asti. So ataha Devatan iti bhavati. Dharanam karoshi ditiya vibhakti dhara. Dharayasi, kalo dharayasi. Dharayasi asti chet, dvitiya vibhakti rupam katam bhavati vastram?
Dharanam karoti.
Dharanam.
Vastram eva. Vastram dharayati.
Vastrasya
dharanam karoshi. Atava vastram dharayasi. Avagachanti va itopi paryantam kim asti iti? Sarve avagachanti va?
Aam.
Astu. Agre gachamaha. Astu. Na janami kasya paya. Urmila bhagini. Uttana chatra. Astu. Arjanam karoti. Pratamam arjanam karoti iti vadatu. Shashti vibhaktim upayujya.
So, Bhagini, when we say arjanam karoti, we can assume that it is going to be saha, right?
Saha atava sa api samanam eva.
Sa jnanam arjayati.
Jnanam arjayati. So, atra avibhajya prayogaha samyak. Jnanam arjayati. Parantu...
Bhagini, arjana... Arjana shabdasya artha kim?
Arjanam itikte to earn, atava to collect iti. Earn the knowledge. Astu. So atra, swagatam bhagini. So atra, vibhajya prayoga asti chet, arjanam karoti iti asti chet, shashti vibhaktim. Shashti vibhakti katam bhavati?
Sa jnanasya arjanam karoti.
Samyak. Jnanasya arjanam karoti. Atava jnanam arjayati. Samyak. Jnanam arjayati.
विभज्यप्रयोगे
षष्टिविभक्तिः भवति. सम्यक् भवति, सम्यक्. अस्तु, अहं पश्यामि नूतन मङ्गल् मङ्गल् भगिनि. आह्वानं कुर्वन्ति अस्तु अस्तु, नास्ति चिन्ता. विष्णुमहोदय, आह्वानं कुर्वन्ति सारथिः इति पदस्य षष्टिविभक्तिः प्रथमं करोतु. अत्र इकारान्तपदं हरि शब्दः अस्ति चेत् हरेः हरेः गृहं कुत्र अस्ति इति. विष्णुमहोदय खलु?
आं भगिनि,
वदति वा? सारथेः. सम्यक्,
सारथेः
आह्वानं
ते सार्थेः आह्वानं कुर्वन्ति.
उत्तमम्. इदानीम् अविभज्यप्रयोगः इत्युक्ते साधारणप्रयोगः.
सारथिना
सारथिं
सारथि
आह्वयन्ति. सम्यक्, आह्वयन्ति सारथिम् आह्वयन्ति. सम्यक्, आह्वयन्ति. अस्तु, शोभना भगिनी.
सो भगिनी, विभाज्यप्रयोग सारथीणाम् आह्वानं कुर्वन्ति.
सारथीनां बहुवचनम् अस्ति चेत् अत्र एकवचनमेव खलु, सारथेः
कुर्वन्ति.
ते कुर्वन्ति, ते एकस्य सारथेः एव आह्वानं कुर्वन्ति. ते मिलित्वा एकस्य सारथेः एव.
रथः स्थापनं रथस्य स्थापनं करोति.
सम्यक्, रथस्य स्थापनं करोति. सम्यक्
वा रथं रथं स्थापयति.
सम्यक्, रथं स्थापयति. सर्वे अवगच्छन्ति वा?
आम् भगिनि.
अस्तु, उत्तमं. रथस्य स्थापनं करोति, रथं स्थापयति. बहु सम्यक्, सुन्दरम्. अस्तु, सविता भगिनी.
आं भगिनि, हृदयानि विदारणं करोति.
रथस्य अत्र रथं
हृदयानि वितरणं करोति. हृदयानि
सो प्रथमम् एकवचनं करोतु, अनन्तरं बहुवचनं सुलभं भवति.
हृदयस्य विदारणं करोति.
हृदयस्य
विदारणं करोति. हृदयस्य
हृदयानां षष्टिविभक्ति सर्वत्र नाम भवति. पुल्लिङ्गं वा स्त्रीलिङ्गं वा नपुंसकलिङ्गं वा, न
हृदयानां विदारणं करोति.
अस्तु, इदानीम् अविभज्यप्रयोगः.
विदारयति.
विदारयति. हृदयानि
हृदयानि
विभक्ति हृदयानि एव सम्यक् हृदयानि एव
हृदयानि विधारयति
हृदयानि विधारयति अत्र हृदयानाम् इति भवति सम्यक्
हृदयानां नत्वं भवति वा
हृद न भवति न भवति हृदयानां
What is the question, Bhagini?
Na va, Shidayanam va.
Parantu rakaram asti che.
Uttama prashna ha. So atra niyamaha evam asti. So atra darshayami. Asti sadhanataya लघु अभवत् एकनिमिषं
नियमस्य कारणात् न भवति
न भवति सो अत्र रेफा अथवा ऋकारः अथवा षकारः अस्ति चेत् नकारः न भवति नत्वम् आगच्छति परन्तु नियमः कः इत्युक्ते रेफा अस्ति ऋकारः अस्ति षकारः अस्ति मध्ये किम् अस्ति इति स्वराः अस्ति चेत् सम्यक् स्वराः अस्ति चेत् भवति किं भगिनि वदतु
अत्र स्वरः नास्ति
सो अत्र अनन्तरं क वर्गाः क क ग ग ङ क वर्गाः प प भ ब म अपि च य व य र ल इति चिन्तयामि अहं सम्यक् न स्मरामि य र ल व अस्तु एतानि पदानि एतानि अक्षराणि आगच्छति चेत् नत्वं भवति अहं
भगिनि क प ह व य ल नास्ति भगिनि
हवय वा अस्तु अहं सम्यक् न स्मृतवती धन्यवादः हयव एतानि पदानि मध्ये आगच्छति चेत् नत्वं भवति नो चेत् न सो अत्र किम् अस्ति हकारः अस्ति ऋकारः अस्ति सो अतः ऋकारः भवति परन्तु मध्ये दकारः आगच्छति दकारः अस्ति चेत् नत्वं न भवति
धन्यवादः भगिनि
धन्यवादः हयव अहं या अस्ति सो या विल् मेक् इट् हेपन् ओके अनन्तरम् आफ्टर् या वि हेव् आ दट् विल् मेक् इट् हेपन् परन्तु मध्ये द अस्ति सो द बाधकं करोति बिट्वीन् द ऋ अण्ड् द न वी हेव् टु सी वाट् आर् आल् आर् देर् सो इफ् इट् इस् अ ख वर्ग फ वर्ग ह य व अस्ति चेत् नकार नत्वं भवति नो चेत् न भवति अस्तु अग्रिमम् ओ समयः अतीतः बहु अतीतः अस्तु अन्य का वक्तुम् इच्छति वदतु कोऽपि वदतु कार्यक्रमाः
कार्यक्रमस्य उद्घाटनं करोषि
कार्यक्रमस्य परन्तु अत्र बहुवचनमस्ति कार्यक्रमस्य कार्यक्रमयोः
कार्यक्रमाणां
क्रमाणां सो अत्र न नास्ति न किमर्थं न इति उक्तवती फ प ब भ म
मकारः अस्ति
नकारं भवति किमर्थम् इत्युक्ते पवर्गे अस्ति फ प भ भ म
पवर्गे अस्ति
भवति अस्ति अतः नाम भवति कार्यक्रमाणां सम्यक् कार्यक्रमाणाम् उद्घाटनं करोषि
अतः सः कार्यक्रमान्
सो अतः करोषि इति अस्ति अतः सः न आगच्छति किम् आगच्छति
त्वं कार्यक्रमान्
उद्घाटयसि यसि
उद्घाटयसि
सम्यक् उद्घाटयसि सर्वे अवगच्छन्ति वा सो अत्र षष्टिविभक्ति एकवचनं प्रथमं करोतु कार्यक्रमस्य कार्यक्रमाः इति पुल्लिङ्गं वा स्त्रीलिङ्गं वा पुल्लिङ्ग सो अतः कार्यक्रमस्य कार्यक्रमयोः कार्यक्रमाणाम् अस्तु त्वं कार्यक्रमाणाम् उद्घाटनं करोषि त्वं कार्यक्रमाणाम् उद्घाटनं करोषि अथवा अविभज्यप्रयोगः कृ धातु नास्ति चेत् त्वं कार्यक्रमान् उद्घाटयसि अत्र अन्यदेकं नियमः अस्ति णत्वविषये अन्तिमवर्णः न भवति अन्तिमवर्णः न भवति अस्तु वा न एव
सो हियर् कार्यक्रमान् एव
कार्यक्रमान् एव रामान् एवं भवति कार्यक्रमान् रामान् इति न भवति प्रश्नः अस्ति वा एकवारं
भगिनी भवति न भवति कार्यक्रमाणां
क्रमाणां भवति क्रमाणां भवति
अणत्वं भवति
णत्वं भवति किमर्थम् इत्युक्ते रेफा अस्ति र अनन्तरं मा अस्ति मा इति पवर्गे अस्ति प प ब ब म पञ्चमवर्णः म अतः णत्वं भवति परन्तु अन्तिमवर्णः इत्युक्ते कार्यक्रमान् ओके इत्येव प्रश्नः सो अत्र रेफा अस्ति मा अस्ति अतः न एव भवति वा न भवति वा अन्यनियमः अस्ति अन्तिमवर्णः न अस्ति चेत् न भवति न एव अतः कार्यक्रमान् एव रामान् इति द्वितीयाविभक्ति सो इफ् इट् द्वितीयाविभक्ति इस् द एण्डिङ्ग् इस् अ न इन् विदौट् एनी स्वरः इन् दि एण्ड्
कार्यक्रमान्
बहुवचने कार्यक्रमान्
सो दट् इस् वै इट् इस् नाट् कार्यक्रमान् बट्
इट्स् नाट् कार्यक्रमान् इस् कार्यक्रमान् एव
वेर् इस् द एक्साम्पल् आफ् द्वितीयविभक्ति एण्डिङ्ग् इन्
no, there is no example like that. We cannot have, because it is not done.
Okay.
So, vakye srilinga asti, karyakrama ha.
Atra pullinge.
Pullinge.
Karyakrama ha iti asti. Atra api devatan, srilinga asti che, dhitiya vibhakti devata ha eva. Parantu pullinge asti che, devatan eva. परन्तु अत्र णत्वस्य अवसरः अपि नास्ति
द्विवचनं कार्यक्रमौ
न कार्यक्रमान् द्विवचन कार्यक्रमं कार्यक्रमं द्विवचनं कार्यक्रमौ
कार्यक्रमः कार्यक्रमौ कार्यक्रमान्
द्वितीया विभक्ति कार्यक्रमं कार्यक्रमौ कार्यक्रमान् अस्तु समयः अभवत् समापयामः अग्रिमवर्गे अग्रे गच्छामः सप्तमी विभक्तिरूपम् अस्तु इतः पूर्वं पठन्तु अहं यथा उक्तवती एतानि वयं कृतवन्तः प्रश्नाः सन्ति चेत् कृपया वदन्तु वयम् एकवारं पुनस्मारणं कृत्वा अग्रे गच्छामः we'll be starting 63 this is the index bhagini anukramanika anukramanika astu astu vayam samapayamah om sarve bhavantu sukhinah sarve santu niramayah sarve bhadrani pashyantu धन्यवादः
धन्यवादः।